सहपाठिनः गृहे।
द्वारे कः?
अहम् आर्ये।
त्वं कः?
अहं सुरेशः, नित्यानन्दस्य सहपाठी। नित्यानन्दः अस्ति?
न, सः नास्ति। सः आपणं गतः।
सदानन्दः?
सदानन्दोऽपि नास्ति। सः खेलितुं गतः। वत्स, किञ्चित् प्रतीक्षस्व। नित्यानन्दः अचिरं प्रत्यागमिष्यति। अत्र उपविश। चिन्मयी, सुरेशः भ्रातुः अर्थे मिष्टान्नम् आनय।
नहि आर्ये, अद्य मया पर्याप्तं खादितम्।
त्वं प्रथमवारम् अस्माकं गृहम् आगतः, किमपि न खादित्वा गमिष्यसि? एतत् न साधु।
आर्ये, अन्यदिने आगत्य पर्याप्तं खादिष्यामि। अद्य कृपया किमपि न ददातु, खादितुम् इच्छा न भवति।
अस्तु वत्स सुरेश, तव गृहे के सन्ति?
मम गृहे पिता, माता, ज्येष्ठः भ्राता, कनिष्ठा भगिनी च सन्ति।
तव ज्येष्ठः भ्राता किं करोति?
सः अस्माकं विद्यालये विज्ञानं पाठयति।
तव भगिनी?
सा षष्ठश्रेण्यां पठति।
पश्य, नित्यानन्दः आगच्छति। अधुना तेन सह आलापं कुरु। अहं संध्यादीपं ज्वालयितुं गच्छामि।